अथ वैकृतिकम् रहस्यम्। ऋषिरुवाच, ॐ त्रिगुणातामसी देवी सात्मकीया त्रिधोदिता सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते योगनिद्रा हरेरुक्ता महाकाली तमोगुणा मधुकैटभनाशार्थम् यातुष्टा वाम्बुजासनः दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा विशालया राजमाना त्रिंशल्लोचनमालया स्फुरद्दशनदंष्ट्रासा भीमरूपापि भूमिपा रूपसौभाग्यकान्तीनाम् सा प्रतिष्ठा महाश्रियः खड्गबाणगदाशूलचक्रशङ्खभुषुण्डिभृते परिघम् कार्मुकम् शीर्णम् निश्चोतरद्रुधिरम् दधौ। एषा सा वैष्णवी माया महाकाली दुरत्यया आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम् सर्वदेवशरीरेभ्यो याविर्भूतामितप्रभा त्रिगुणा सा महालक्ष्मी साक्षान्महिषमर्दिनी श्वेताननानी नीलभुजा सुश्वेतस्तनमण्डला रक्तमध्या रक्तपादा नीलजङ्घोरुरुन्मदा सुचित्रजगनाचित्रमाल्याम्बरविभूषणा चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी अष्टादशभुजा पूज्या सा सहस्रभुजा सती आयुधान्यत्र वक्ष्यन्ते दक्षिणाधक्करक्रमात् अक्षमाला च कमलम् बाणोऽसिः पुलिशम् गदा चक्रम् त्रिशूलम् परशुः शङ्खो घण्टा च पाशकः शक्तिर्दण्डश्चर्मचापम् पानपात्रम् कमण्डलुः अलङ्कृतभुजा मेभिरायुधैः कमलासनाम् सर्वदेवमयीमीषाम् महालक्ष्मीमिमाम् नृप पूजयेत् सर्वलोकानाम् सदेवानाम् प्रभुर्भवेत् गौरीदेहात् समुद्भूता या सत्मैकगुणाश्रया साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी दधौ चाष्टभुजा बाणभुसलेशूलचक्रभृत् शङ्खम् घण्टाम् लाङ्गलम् च कार्मुकम् वसुधाधिप एषा सम्पूजिता भक्त्या सर्वज्ञत्वम् प्रयच्छति निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी इत्युक्तानि स्वरूपाणि मूर्तीनाम् तव पार्थिव उपासनम् जगन्मातुः पृथगासाम् निशामय महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रयम् विरिञ्चस्वरया मध्ये रुद्रो गौर्या च दक्षिणे वामे लक्ष्म्या ऋषिकेशः पुरतो देवतात्रयम् अष्टादशभुजा मध्ये वामे चास्यादशानना दक्षिणेष्टभुजा लक्ष्मीर्महतीति समर्चयेत् अष्टादशभुजा चैषा यदा पूज्या नराधिप दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा कालमृत्यू च सम्पूज्यो सर्वारिष्टप्रशान्तये यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी नवास्याशक्तयः पूज्यास्तदा रुद्रविनायकौ नमो देव्या इति स्तोत्रैर्महालक्ष्मीम् समर्चयेत् अवतारत्रयार्चायाम् स्तोत्रमन्त्रास्तदाश्रयाः अष्टादशभुजा चैषा पूज्या महिषमर्दिनी महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ईश्वरी पुण्यपापानाम् सर्वलोकमहेश्वरी महिषान्तकरी येन पूजिता सा जगत्प्रभुः पूजयेज्जगताम् धात्रीम् चण्डिकाम् भक्तवत्सलाम् अर्घ्यादिभिरलङ्कारैर्गन्धपुष्पैस्तथाक्षतैः धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः रुधिराक्तेन बलिना मांसेन सुरया नृप बलिमांसादिपूजेयम् विप्रवर्ज्यामयेदिता तेषाम् किल सुरा मांसैर्नोक्ता पूजा नृप क्वचित् प्रणामाचमनीयेन चन्दनेन सुगन्धिना सकर्पूरैश्च ताम्बूलैर्भक्तिभावसमन्वितैः वामभागे क्रतो देव्याश्चिन्नशीर्षम् महासुरम् पूजयेन्महिषम् येन प्राप्तम् सायुज्यमीशया दक्षिणे पुरतः सिंहम् समग्रम् धर्ममीश्वरम् वाहनम् पूजयेद्देव्या धृतम् येन चराचरम् कुर्याच्च स्तवनम् धीमांस्तस्या एकाग्रमानसः ततः कृताञ्जलिर्भूत्वा स्तुवीतचरितैरिमैः एकेन वा मध्यमेन नैकेनेतरयोरिह चरितार्थम् तु न जपेज्जपच्छिद्रमवाप्नुयात् प्रदक्षिणा नमस्कारान् कृत्वा मूर्धिराञ्जलिः क्षमापयेज्जगद्धात्रीम् मुहुर्मुहुरतन्द्रितः प्रतिश्लोकम् च जुहुयात् पायसम् तिलसर्पिषा जुहुयात् स्तोत्रमन्त्रैर्वा चण्डिकायै शुभम् हविः भूयो नाम पदैर्देवीम् पूजयेत् सुसमाहितः प्रयतः प्राञ्जलिः प्रह्वः प्रणम्यारोप्य चात्मनि सुचिरम् भावयेदीशाम् चण्डिकाम् तन्मयो भवेत् एवम् यः पूजयेद्भक्त्या प्रत्यहम् परमेश्वरीम् भुक्त्वा भोगान् यथा कामम् देवी सायुज्यमाप्नुयात् यो न पूजयते नित्यम् चण्डिकाम् भक्तवत्सलाम् भस्मीकृत्यास्य पुण्यानि निर्दहेत् परमेश्वरी तस्मात् पूजय भूपाल सर्वलोकमहेश्वरी यथोक्तेन विधानेन चण्डिकाम् सुखमाप्स्यसि इति वैकृतकम् रहस्यम् सम्पूर्णम्।